इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचको निक्षितः शास्त्री। आदौ मुख्यवार्ताः। भाजपादलस्य वरिष्ठनेता प्रधानमन्त्री च अद्य भारतं स्वातन्त्र्यस्य शताब्दी वर्षपर्यन्तं विकसितराष्ट्रस्य स्थितिं प्राप्स्यति इति राष्ट्राय आश्वासनं दत्तवान्। केन्द्रीय अन्वेषण ब्यूरो सीबीआई द्वारा अद्य कलकत्ता उच्च न्यायालये पश्चिमबंगस्य सन्देशखाली नगरे अवैध भूमि प्रतिग्रहणस्य, धनाहरणस्य, महिलानाम् उत्पीडनस्य च प्रकरणानाम् अन्वेषणस्य प्रारम्भिक स्थिति प्रतिवेदनं प्रस्तुतम्। संयुक्तराष्ट्रसंघे भारतस्य स्थायी प्रतिनिधि रुचिरा कम्बोज इत्यनया उक्तं यत् भारतं फिलिस्तीन इज़राइलयोः च कृते द्विराज्यीय समाधानार्थं प्रतिबद्धम् अस्ति। एशियायाः अन्तर्द्वाविंशीय मुष्टामुष्टि प्रतियोगितायां भारतीय मुष्टामुष्टि क्रीडकाः आर्यनः, यशवर्धन सिंहः, प्रियांशुः साहिलश्च कजाखस्तानस्य अस्ताना नगरे उपान्त्यचक्रे प्रवेशं प्राप्तवन्तः। अपि च आईपीएल क्रिकेट प्रतियोगितायाम् अद्य हैदराबाद नगरे सनराइजर्स हैदराबाद दलं राजस्थान रॉयल्स दलं विरुध्य क्रीडिष्यति। अथ वार्ताः विस्तरेण। प्रधानमन्त्री गुजरात प्रचारम् अद्य कुर्वन् भाजपादलस्य वरिष्ठनेता प्रधानमन्त्री अद्य उक्तवान् यत् स्वातन्त्र्यस्य शताब्दी वर्षपर्यन्तं विकसितराष्ट्रस्य स्थितिं प्राप्स्यति भारतम् इति सः आश्वासितवान्। श्रीमोदी अद्य गुजरातस्य आनन्द सुरेन्द्रनगरयोः द्वयोः एव सभे सम्बोधितवान्। आनन्दनगरे सभां सम्बोधयन् सः अवदत् यत् एनडीए शासनान्तर्गतं विगतेष् दशवर्षेष् देशेन महत्परिवर्तनं दृष्टम्। सः अवदत् यत् भारतं वैश्विक कार्येष् एकस् प्रमुख राष्ट्रत्वेन उद्भूतमस्ति तथा च विश्वम् अन्ताराष्ट्रिय संघर्षेष् भारतं मध्यस्थता कर्तृत्वेन पश्यति इति। विगत दशके देशस्य वैश्विक प्रतिबिम्बे महत्वपूर्ण परिवर्तनस्य विषयेऽपि सः उक्तवान्। सः कांग्रेस पक्षम् आक्रमितवान् यत् राजनैतिक लाभार्थं निर्धनानां शोषणं करोति एतद्दलम्। ओबीसी इति समुदायस्य प्रति अन्यायं च करोति कांग्रेसदलम्। श्रीमोदी आश्वासनं दत्तवान् यत् तस्य सर्वकारः देशे धर्माधारितं आरक्षणं दातुं प्रयत्नान् निषिद्धान् करिष्यति। सुरेन्द्रनगरे निर्वाचनसभायां वदन् गुजरातस्य जनानां कृते आह्वानं कृतवान् यत् ते निर्वाचनदिने बहुसंख्यायां मतदानं कुर्युः इति। कांग्रेसस्य विभिन्न प्रवञ्चनानां भ्रष्टाचारस्य आलोचनं कुर्वता तेनोक्तं यत् विगत दशवर्षेष् देशे एकापि प्रवञ्चना न अभवत्। सः अवदत् यत् देशे निर्धनजनाः कांग्रेसपक्षे विश्वासं त्यक्तवन्तः। ह्यः प्रारभ्य राज्ये प्रचारं कुर्वन् श्रीमोदी अद्य जूनागढ जामनगरयोः सभासु अपि सम्बोधनं करिष्यति। तत्रैव कांग्रेसनेता राजस्थानस्य पूर्वमुख्यमन्त्री अशोकगहलोतश्च अहमदाबादनगरे वार्ताहरसम्मेलनं सम्बोधयन् आश्वासनं दत्तवान् यत् कांग्रेसघोषणापत्रे समाजस्य प्रत्येकं वर्गाय न्यायस्य वचनमस्ति। श्रीगहलोतः देशे लोकतन्त्रस्य सुरक्षायाः विषये चिन्ताम् अभिव्यक्तवान् तथा च भाजपायाः आलोचनां कृतवान् यत् तद्दलं जनान् भ्रामयति, महार्गता वृत्तिहीनता इत्यादीनां प्रमुखविषयाणाम् उपेक्षां च करोति। अद्य राज्ये आपनेत्री श्रीमती सुनीता केजरीवालः अपि प्रचारं कुर्वती अस्ति। भावनगरस्य आप प्रत्याशी उमेश मकवाना इत्यस्य पक्षे बोटाड नगरे मार्ग प्रदर्शनमपि आयोजितवती। केन्द्रीय अन्वेषण ब्यूरो सीबीआई द्वारा अद्य कलकत्ता उच्च न्यायालये पश्चिमबंगस्य सन्देशखाली नगरे अवैध भूमि प्रतिग्रहणस्य, धनाहरणस्य, महिलानाम् उत्पीडनस्य च प्रकरणानाम् अन्वेषणस्य प्रारम्भिक स्थिति प्रतिवेदनं प्रस्तुतम्। प्रतिवेदनं कलकत्ता उच्च न्यायालयस्य मुख्य न्यायाधीशस्य टीएस शिवज्ञानम् एवञ्च न्यायमूर्ति हिरण्मय भट्टाचार्यस्य पीठं प्रति समर्पितम्। प्रतिवेदन प्रस्तुतिकाले सीबीआई अधिवक्ता केन्द्रीय अधिकारिभ्यः सन्देशखालीस्थले भूमि अभिलेखान् प्रदातुं राज्य सर्वकारस्य असहयोगस्य विषये अपि लिखितं प्रतिवेदनं दत्तवान्। सीबीआई अधिवक्ता अवदत् यत् केन्द्रीय संस्थायाः समर्पित वेबफलक माध्यमेन सन्देशखाली नगरे अवैध भूमि अधिकरण सम्बद्धानि प्रायः 700 प्रकरणानि प्राप्तानि सन्ति। संयुक्तराष्ट्रसंघे भारतस्य स्थायीप्रतिनिधि रुचिरा कम्बोज इत्यनया उक्तं यत् भारतं फिलिस्तीन इजरायलयोः च कृते द्विराज्यीय समाधानार्थं प्रतिबद्धमस्ति। संयुक्तराष्ट्रसंघस्य महासभायां सा अवदत् यत् भारतं द्विराज्य समाधानस्य समर्थनं करोति, यत्र फिलिस्तीन जनाः सुरक्षित सीम्नाम् अन्तः स्वतन्त्र देशे स्वतन्त्रतया निवसितुं समर्थाः भवेयुः। श्रीमती रुचिरा कम्बोज गतवर्षस्य अक्टोबर मासस्य सप्तमे दिनांके इजरायल देशे हमास द्वारा कृतस्य आक्रमणस्य अपि निन्दां कृतवती, परन्तु अन्ताराष्ट्रिय नियमानां अन्ताराष्ट्रिय मानवता विधीनां च सर्वास् परिस्थितिष् सर्वैः आदरः करणीयः इत्यपि सा उक्तवती। भारतेन गाजा क्षेत्रे इजरायल बन्धकानां मुक्तेः कृते अपि आग्रहः कृतः। मानवीय सहायतायाः विषये श्रीमती कम्बोजः उक्तवती यत् भारतं फिलिस्तीन जनानां सहायतां निरन्तरं करिष्यति। सा इदमपि अवदत् यत् गाजा क्षेत्रस्य जनानां कृते मानवीय सहायता तत्क्षणमेव वर्धनीया इति। संस्कृत वार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे उपलब्धो भविष्यति। भारतस्य वातावरण विभागेन अद्य पर्यन्तं पश्चिम बंग झारखंड ओडिशा बिहार प्रदेशेषु तीव्रतापतरंगः प्रचलति इति पूर्वानुमानं कृतम्। आईएमडी इत्यनेन उक्तं यत् दक्षिण प्रायद्वीपीय भारतस्य उपरि शुक्रवासर पर्यन्तं एतादृश्यः परिस्थितयः अतीव सम्भाव्यन्ते। आगामिषु पञ्चदिनेषु महाराष्ट्र रायलासीमा गुजरात तमिलनाडु आन्ध्रप्रदेशानाम् उपरि रविवासर पर्यन्तं मध्यभारतस्य उपरि च तापतरंगस्य अपेक्षा अस्ति। वातावरण विभागेन अग्रे शुक्रवासर पर्यन्तं गंगेटिक पश्चिम बंग पूर्व झारखंड उत्तर ओडिशा रायला सीमा इत्यादीनाम् अधिकतम तापमानं चतुश्चत्वारिंशत्तः सप्तचत्वारिंशत्तः अंश सेल्सियस पर्यन्तं भविष्यति इति पूर्वानुमानं कृतम्। उष्ण आर्द्र वातावरणेषु आगामिषु पञ्चदिनेषु तटीय कर्णाटक केरल माहे प्रदेशेषु एताः परिस्थितयः प्रचलन्ति इति आईएमडी संस्थायाः कथनम् अस्ति। अद्य पर्यन्तं पूर्वोत्तर भारतस्य उपरि वज्रपातेन सह प्रचण्ड वृष्टेः अपि अत्यन्तं सम्भावना वर्तते। अस्य मासस्य तृतीयतः षष्ठ पर्यन्तं जम्मू कश्मीर लद्दाख गिलगित बाल्टिस्तान मुजफ्फराबाद उत्तराखण्ड हिमाचल प्रदेशानाम् उपरि वज्रपात विद्युत सहितं वर्षाणां हिमपातस्य च सम्भावना वर्तते। अमेरिकीय फेडरल रिजर्व इत्यनेन षष्ठवारं प्रमुख कुसीद प्रतिशतता अपरिवर्तिता एव संरक्षिता। द्विदिनात्मकस्य संघीय मुक्तापण समितेः FOMC इत्यस्य सम्मेलनानन्तरं गतरात्रौ अमेरिकीय एपेक्स वित्तकोषेण सर्वसम्मत्या निर्णयः कृतः यत् स्वस्य 2% महार्गता लक्ष्यं प्रति अग्रे प्रगतेः अभावस्य उल्लेखं कृत्वा ऋण प्रतिशतता अपरिवर्तिता एव स्थास्यति इति उद्घोषितम्। जम्मू कश्मीरे सीमा सुरक्षा बलस्य सैनिकैः सांबा मण्डलस्य सीमा चौकरीगल इत्यत्र गतरात्रौ भारतीय क्षेत्रे प्रवेशे प्रयतमानो पाकिस्तानीः एकः जनः मारितः। भारतीय शतरंज विदुषी वैशाली रमेश बाबू इत्यस्मै अन्ताराष्ट्रिय शतरंज संघेन फाइड इत्यनेन आधिकारिकतया ग्रैंड मास्टर इति उपाधिना सा अलंकृता। वैशाली कोनेरू हम्पी हारिका द्रोणवल्ली इत्येताभ्यां सह मिलित्वा तृतीया भारतीय महिला अस्ति या अनेन उपाधिना अलंकृता। वैशाली स्पेन देशे गतवर्षे लोब्रेगाट ओपन प्रतियोगितायां आवश्यक 2500 ईएलओ अंकान् सम्पादितवती। आईपीएल क्रिकेट क्रीडायाम् अद्य हैदराबाद नगरे सनराइजर्स हैदराबाद दलं राजस्थान रॉयल्स दलं विरुध्य क्रीडिष्यति। गतरात्रौ चेन्नई नगरस्य एमए चिदम्बरम क्रीडांगणे पंजाब किंग्स दलेन चेन्नई सुपर किंग्स दलं 7-2 पराजितम्। एशियायाः अन्तर्द्वाविंशीय मुष्टामुष्टि प्रतियोगितायां भारतीय क्रीडकाः उपान्त्यचक्रं प्रविष्टवन्तः इति वार्ताः।